गीता साधक संजीवनी नवा अध्याय श्लोक 1 से 11 तक।
वसुदेव सुतं देवं कंस चारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
ओम श्री परमात्मने नमः। अथ नवो अध्यायः। श्री भगवान उवाच वेदान्तु ते गोह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ञात्वा मोक्षसे शुभात् राजविद्या राजगोह्यं पवित्रमिदमोत्तमं प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययं अश्रद्धधानः पुरुषः धर्मस्यास्य परन्तप अप्राप्य मामे वर्तन्ते मृत्यु संसारवात्मनि मया ततमिदं सर्वं जगदव्यक्तमूर्तिना मस्तानि सर्वभूतानि न साहं तेष्वस्थित न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् भूतभिर्न च भूतस्थो ममात्मा भूतभावना यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमः तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय सर्वभूतानि कौन्तेय प्रकृते यान्ति मामिकां कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमं कृष्णमवशं प्रकृतेर्वशात् न च मां तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवदासीनमसक्तं तेषु कर्मसु मयाध्यक्षेण प्रकृति श्रूयते सचराचरं हेतुनानेन कौन्तेय जगद्विपरिवर्तते अवजानन्ति मां मूढा मानुषीं तनुमाश्रितं परं भावमजानन्तो मम भूतमहेश्वरं अवजानन्ति मां मूढा मानुषीं तनुमाश्रितं परं भावमजानन्तो मम भूतमहेश्वरम्।
वसुदेव सुतं देवं कंस चारुरमार्दनं देवकी परमानन्दं